इमा रुद्राय तमसेकमर्दिने क्षयद्वीराय प्रभरामहे मती यथा तमसद्विपदे चतुष्पदे विश्वम् पृष्टम् ग्रामे अस्मिन्नानातुरम् ृणानोरुद्रोतनो वयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्जयोश्रमनो राजे ये पिता तदस्यामतमरुद्रप्रणीतिषु अस्यामाते सुमतिम् देव यज्ञया क्षयद्वीरस्य तव रुद्रमीढ्वः सुम्नायन्निद्विदो अस्मृष्टवीराजुभवामते हविः ेहम् वयम् रुद्रम् यज्ञसाधम् भङ्गम् कविमवासे निःप्रायामहे आरे अस्मद्दैव्यम् हेलो अस्य दुर्भयभस्य व्रीणीमहे दिवो वा रागमरिषङ्कबद्दिनम् वेदम् रूपम् नमसा निःप्रायामहे हस्ते बिभ्रग्भेषया वार्याणि सर्ववर्मच्छर्तिरस्मभ्यम् सत् इयम् पित्रे मरुतामुच्यते वच स्वादो स्वादीयो रुद्राय वर्धनम् आश्वाजनो अमृतवर्तभोजनम् मने लोकायतनयाय मृळ मानो महान्तमुतमानो अर्भगम् मानवृक्षम् नभुतमानवृक्षितम् मानस्तोकेतन ये मान आजौ मानो गोषु मानो अस्मेषु रीरिणः वीरान्मानो रुद्रभावितो बाधीर्हविष्मम् दस्तदमित्वा हवामहे उपाते स्तोमान् पशुपायिवाकरम् स्वापितर्मरुताम् सुन्नमस्मे भद्राहिते सुभद्रमृणयत्समाधा वयमभैते वृणीमहे आरेते गोघ्नमुदपोरुषघ्नम् क्षयद्वीरसुन्नमस्मेते अस्तु मृणा च नो अधीच ब्रूहि देवाधा च नः शर्मा यच्छद्विवर्हाः अवोचामनमो अस्माभस्यवशृणोतु नो हवम् रुद्रो मरुत्वान् तन्ना मित्रो वरुणो मामहन्तामदि सिन्धुः पृथिवी उदद्यौः